गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र वृत्तिः इति तत्र रूपम् इति दृष्टवन्तः रूपम् इति गुणः रूपम् इति गुणस्य लक्षणे तत्र सप्तविधं तत्र रूपं सप्तविधम् इति आसीत् तत्र सप्तविधं नाम तत्र चित्ररूपम् इति अन्यतमं रूपम् अस्ति तत्र रूपम् इति तत्र लक्षणवाक्यं यदि पश्यामः तत्र पेज् 72 मध्ये अस्ति चक्षुर्मात्रग्राह्यः गुणः रूपम् तच्च शुक्लनीलपीतरक्तहरितकपीशचित्रभेदात् सप्तविधम् इति अतः तत्र चित्रम् इत्युक्ते किम् इति गतवर्गे चर्चितम् अस्माभिः इदानीं तत्र चित्रम् इति तत्र रूपं कथं भवति नूतनरूपं कथं भवति इति तत्र मतभेदः वर्तते हा अत्र महान् विषयः तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति वयं गतवर्गे पठितवन्तः अतः तत्र केवलं किञ्चित् तत्र पुनःस्मरणं कृत्वा अग्रे सरामः तत्र यदि तत्र पुटसङ्ख्या तत्र 79 मध्ये तत्र सूक्तिललन्तिका इति यदि अस्ति तत्र किञ्चित् पठामः तदनन्तरम् अग्रे करपत्रं पठामः यतोहि तत्र सर्वं तत्र करपत्रेण स्पष्टं भवति इति मन्ये तर्हि तत्र अस्तु तर्हि तत्र नीता भगिनी भवती एव तत्र आरम्भं करोति वा तत्र वस्तुतः तत्र प्रकृतमनुसरामः इति ततः आरभ्य एव पठतु भगिनि एतत् वयं गतवर्गे पठितवन्तः किन्तु शीघ्रतया पठामः तदनन्तरं करपत्रं पठामः
प्रकृतमनुसरामः चक्षुर्मात्रग्राह्यो गुणः रूपम् इति दलत्रयं रूपलक्षणं पर्यवसितम् मूले तद्विभागम् आह तत् सप्तविधम् इति शुक्लेत्यादि प्रसिद्धानि चित्ररूपम् इति अतिरिक्तम् यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्च तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं न अपि रक्तं रूपं किन्तु चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः तत्र इदानीं तु चक्षुर्मात्रगाय रूपः गुणः रूपम् इति दलत्रयस्य दलसार्थक्यम् इति रूपलक्षणं तु वयं पठितवन्तः इदानीं सप्तविधम् इति रूपं सप्तविधं
लक्षणवाक्ये
पेज् 72 मध्ये अस्ति तत् सप्तविधम् इति अस्ति तत् शुक्लनीलपीतरक्तहरितकपिशचित्रम् इति अतिरिक्तं तस्मिन् चित्रमिति अतिरिक्तं वर्तते अत्र चित्रम् इत्युक्ते किम् इति दत्तमस्ति
अवयवान् शुक्लं नीलम् इति परिचितं किन्तु चित्रम् इति अपरिचितं रूपम् अस्ति
अत्र इत्युक्ते तत्र मिश्ररूपम् इति तत्र अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते तत्र न समानरूप अवयवाः सन्ति किन्तु परस्परं विभिन्नं रूपं तत्र अस्ति सः अवयवी यस्मिन् न समानरूप अवयवाः सन्ति सः अवयवी चित्रः इति उच्यते अनन्तरम् उदाहरणं दत्तमस्ति कस्मिंश्चित् पटे तत्र पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्चशतानि तत्र यत् रूपम् उत्पद्यते तत् न पीतं रूपं न रक्तं रूपमपि किन्तु अतिरिक्तं सप्तं रूपं निष्पद्यते तत् रूपम् इति वैशेषिकाणां मतमस्ति तत्र वैशेषिकाणां मतमस्ति तत् रूपं चित्रम् इति तत्र वैशेषिकाणां चिन्तनमस्ति तत् चित्रम् इति रूपं सप्तं रूपम् इति उत्पद्यते
नाम तत्र यत् श्वेतं नास्ति नीलं नास्ति षट्सु रूपेषु यद् नास्ति चेत् तद् रूपं तत्र चित्ररूपम् इति अतः
तत्र षण्णां वर्णानां मेलनं भवति मिश्र
मेलनम् इति न किन्तु षण्णां रूपं नास्ति चेत् तर्हि इदानीं इदानीं चित्ररूपम् इति एव स्वीकर्तव्यम् इति
भिन्नत्वेन
यद् भिन्नमस्ति तत् चित्रम् इति तैः स्वीकृतम् अतः तत्र इदानीं तत्र उदाहरणे तत्र पीततन्तवः सन्ति श्वेततन्तवः अपि सन्ति अतः पीतवर्णम् इति अपि न वक्तुं शक्नुमः यतोहि ते श्वेततन्तवः सन्ति श्वेतवर्णम् इति न वक्तुं शक्नुमः यतोहि पीततन्तवः सन्ति इति अतः तत्र प्रश्नः उदेति तत्र किं रूपम् इति ते चित्ररूपम् इति तत्र वैशेषिकाणां नाम तत्र नव्यनैयायिकाः सन्ति अपि प्राचीननैयायिकाः सन्ति प्राचीननैयायिकानां मतम् अस्ति चित्ररूपं सप्तमम् अस्ति इति तेषां मतम् इदानीम् अग्रे गत्वा पश्यामः तत्र का स्थितिः अपि तत्र कः भेदः एतत् सर्वम् अग्रे आयाति प्रश्नः भगिनि
न स्पष्टमस्ति
अस्तु अस्तु धन्यवादः
धन्यवादः
अस्तु इदानीम् अग्रे सरामः तर्हि तत्र योगेन्द्रमहोदय
आम् महोदय सुप्तिललन्तिका व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणम् नव्यनैयायिकाः न इदं सहन्ते तेषाम् अयम् आशयः वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्यांचित् शाखायां वा भवति न तु सर्वेषु अवयवेषु कपिः भवति वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते अपि हि तत्संयोगो वा न सर्व अवयवेषु वर्ते इति कपिः अपि संयोगो वा अव्याप्यवृत्तिः उच्यते अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः
किञ्चित् वदतु महोदय
एकस्मिन् वृक्षे कपिः अस्ति स कस्मिंश्चित् शाखायां तिष्ठति अतः तेन वृक्षेण सह सम्बन्धः जायते इति परन्तु तत्तु अव्याप्यवृत्तिः इति उच्यते यतोहि कपिः सर्वत्र नास्ति कपिः एकस्मिन् एव शाखायाम् अस्ति वा मूले अस्ति वा अग्रभागे अस्ति कस्यचित् अस्ति वृक्षे परन्तु सर्वत्र नास्ति, परन्तु वृक्षगत रूपम् अस्ति, तत् रूपं तु सर्वेषु अवयवेषु, वृक्षस्य सर्वेषु अवयवेषु अस्ति, अतः वृक्षे सर्वत्र व्याप्य अस्ति। वृक्षगत रूपं वृक्षे सर्वत्र व्याप्य अस्ति, अतः तत् व्याप्यवृत्ति इति उच्यते।
व्याप्यवृत्तिः नाम सर्वत्र वृक्षे सर्वत्र वर्तते। समीचीनं। अपि कपिः,
कपि कपि एकस्मिन् शाखायाम् एव तिष्ठति वा मूले तिष्ठति वा अग्रभागे तिष्ठति, सः तु वृक्षगत सर्वेषु अवयवेषु नास्ति, अतः सः अव्याप्यवृत्ति इति उच्यते। कयु कपि संयोगो कपिः कपि संयोगोः वा अव्याप्यवृत्तिः इति उच्यते।
न न कपिः तत् संयोगो वा न सर्वावयवेषु
कपिः तत् संयोगो वा न सर्व अवयवेषु वर्तते इति कपिः कपि संयोगोः वा अव्याप्यवृत्तिः इति उच्यते।
कपिः अथवा कपि संयोगः तत्र सर्वेषु अवयवेषु न वर्तते इति कृत्वा वयं तत्र नामकरणं किं कुर्मः? अव्याप्यवृत्तिः।
यतोहि तत् व्याप्य नास्ति, वृक्षेषु सर्वेषु अवयवेषु व्याप्य नास्ति, अतः तत्तु एकस्मिन् शाखायाम् एव अस्ति, अतः
हा इति अस्ति। समीचीनं। अग्रे
अग्रे अव्याप्यवृत्तित्वम् इत्यस्य स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्व इति अर्थः।
इदानीं तत्र नैयायिकरीत्या अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति दत्तमस्ति, नाम किं किम् अस्ति
अव्याप्यवृत्तित्वम्
इत्युक्ते किम् अस्ति?
तत्र यत्र कपिः नास्ति तत्र या वृत्तिः वर्तते सा
तत्र स्व स्व इति पदं किम् इति चिन्तनीयमस्ति। स्व इत्युक्ते किं स्वीकर्तुं शक्नुमः?
अभावः
न न किन्तु स्व इत्युक्ते किम् अथवा कः तत्र
अव्याप्यवृत्ति
न न न तस्य विवरणं
व्याप्यवृत्ति
अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति दत्तमस्ति, अतः तत्र उदाहरणार्थं तत्र कपिसंयोगः इति स्वीकरोतु। स्व इत्युक्ते कपिसंयोगः, स्वस्य इत्युक्ते कपिसंयोगस्य
कपिसंयोगस्य
विद्यमानत्वं, विद्यमानत्वं नाम अस्ति, विद्यमानत्वं नाम अस्ति, वर्तते, कुत्र वर्तते? वर्तते
यत्र कपिः अस्ति तत्र एव वर्तते।
न न न न न न एकनिमिषं महोदय, स्व इत्युक्ते किं चिन्तितवन्तः वयम्? स्व इत्युक्ते इदानीं
कपिसंयोगः,
कपिसंयोगः अस्तु। तत्र वाक्ये स्व इति द्विवारम् आगच्छति, स्वस्य अपि स्व अभावस्य। तर्हि स्वस्य इत्युक्ते किमस्ति? कपि
कपिसंयोगस्य,
कपिसंयोगस्य स्व अभावस्य इत्युक्ते किमस्ति?
कपि संयोग नास्ति तस्य व्याप्य
कपि संयोग अभावस्य इति एव खलु?
अभावस्य
नास्ति इति मास्तु, अभावस्य इति, स्व अभावस्य नाम कपिसंयोग अभावस्य
अभावः।
कपिसंयोग अभावस्य अधिकरणं किमस्ति? चित्रं दृष्ट्वा वदतु, अधिकरणं किमस्ति?
वृक्षः अस्ति,
वृक्षः
कपिसंयोगस्य
अधिकरणं वृक्षः अस्ति। वृक्षे किमस्ति? अन्यत् किमस्ति? अन्यत्
मूलमस्ति,
मूलमस्ति
किम्? किं योगेन्द्रमहोदय?
तत्र कपि संयोग अभावः अस्ति मूले.
हा मूले अस्ति, किन्तु तत्र कपिसंयोग अभावस्य अभावः, कपिसंयोग अभावः वृक्षे अस्ति खलु, वृक्षः अधिकरणं खलु. हा तस्मिन् अधिकरणे, वृक्षे अधिकरणे कपिसंयोगः अपि वर्तते खलु.
कपिसंयोगपि वर्तते अग्रदेशे, अग्रभागे.
हा किन्तु वृक्षे अस्ति, तस्मिन्नेव अधिकरणे द्वयमस्ति खलु, कपिसंयोगः अपि अस्ति, कपिसंयोग अभावः अपि अस्ति खलु. सर्वत्र नास्ति इति इत्यस्य तात्पर्यं किम्? कुत्रचित् अस्ति, कुत्रचित् नास्ति खलु.
नास्ति,
कुत्रचित् अस्ति, कुत्रचित् अभावः अस्ति खलु. तर्हि पुनः एकवारं पठतु तर्हि अव्याप्यवृत्तित्वम् इत्यस्य.
अव्याप्यवृत्तित्वम् इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः.
इदानीं वदतु.
अव्याप्यवृत्तित्वम् अस्ति तस्य अभावः.
अर्थः कः, अर्थः कः? अव्याप्यवृत्तित्वम् इति तस्य अर्थः यथा दत्तमस्ति.
कपिसंयोग
कपिसंयोगः इति उदाहरणं स्वीकुर्मः तर्हि
तत्र तस्य अभावस्य कपिसंयोग अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः.
इत्युक्ते
कपिसंयोगस्य विद्यमानत्वम् इति अर्थः.
अस्तु, तर्हि तत्र अन्य कोऽपि किञ्चित् वदेत् तर्हि तत्र. अस्तु महोदय, धन्यवादः. तत्र पद्मा भगिनी किञ्चित् वदति वा अत्र? पद्मा भगिनी
नमस्ते जी, अनन्तरं किञ्चित् पठामि.
अस्तु 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 अस्तु, चिन्ता मास्तु. अस्तु तर्हि तत्र तर्हि उषा भगिनी किञ्चित् वदति वा अत्र?
अस्तु महोदय, स्व इति कपिसंयोगः, कपिसंयोग यस्य अधिकरणे कपिसंयोगस्य विद्यमानत्वम् अपि च कपिसंयोगस्य अभावस्य विद्यमानत्वम् अपि तस्य अधिकरणे एव अस्ति इति अव्याप्यवृत्तित्वम् इति उच्यते.
अव्याप्यवृत्तित्वं नाम स्व अभावस्य, तत्र कपिसंयोग अभावस्य अधिकरणे वृक्षे,
अधिकरणे वृक्षे स्वस्य विद्यमानत्वं,
स्वस्य नाम
कपिसंयोगस्य विद्यमानत्वम्
इति अर्थः. अतः तत्र कपिसंयोगस्य अपि कपिसंयोग अभावस्य सामानाधिकरण्यम् वर्तते, तयोः सामानाधिकरण्यं वर्तते इति अर्थः. तदेव तत्र अव्याप्यवृत्तिः. अस्तु, धन्यवादः. अग्रे अपि पठति वा?
आं महोदय. एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायां. पूर्वे एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्तिशाखायाम्, अग्रदेशप्रदेशे कपिः अस्ति. तस्य अभावः तु मूलदेशवर्तिशाखायां. कपिसंयोगस्य अभावः अथवा कपिसंयोग अभावः मूलप्रदेशे वर्तते, वृक्षस्य मूलप्रदेशे वर्तते. एवं च अग्रं कपिनिष्ठ आदेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते. अत्र अग्रदेशम् अत्र वाक्यस्य कृते अग्रदेशम् इत्यस्य इति किम् इति चेत् कपिनिष्ठ आदेयता कपिनिष्ठ आदेयतायाः आदेयतायाः अवचेतकम् अथवा अग्रदेशम् इति वृक्षनिष्ठ अधिकरणतायाः अवचेतकम् इत्यपि वक्तुं शक्यते अग्रदेशम् इति यतोहि अत्र एव कपिः दृश्यते
तर्हि अग्रदेशं कस्य अवच्छेदकम्
कपिनिष्ठ आदेयत कपिनिष्ठ आदेयतायाः अवच्छेदक अथवा वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम् अपि अग्रदेशम्
अग्रदेशम् अवच्छेदकं हा तत्र अत्र वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम् इति स्वीकृतं साक्षात् तत्र
वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम्
अपि सा वृक्षनिष्ठ अधिकरणता कीदृशी अस्ति सा कपिनिष्ठ
निरूपितायाः अस्ति
निरूपिता अस्ति सा अधिकरणता मूलदेशम् अग्रे
मूलदेशम् इति अपि संयोग अभावनिष्ठ आदेयता निरूपित अधिकरणता अवच्छेदकम् वृक्षनिष्ठ
वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम् अस्ति
सो प्रथमं वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम् मूलम् अपि वृक्षनिष्ठ अधिकरणतायाः अवचेतकं तत् मूलं कपि संयोग अभावनिष्ठ आदेयतायाः अपि आदेयतया कपि संयोग अभावनिष्ठ आदेयतायाः आदेयतायाः अवच्छेदकम् अपि
अथवा तत्र आदेयतया निरूपित
आदेयतया निरूपित अधिकरणता अवच्छेदकम्
अधिकरणताया अवच्छेदकम् अतः समीचीनम् इदानीं तत्र अग्रिमं वाक्यमपि एकवारं पठतु केवलं
घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूल अग्रनिष्ठं भिन्नम्
अत्र तत्र इदम् अवच्छेदकत्वं तत्र अवच्छेदकम् अस्ति अवच्छेदकत्वम् अस्ति घटत्वम् अपि तत्र अवच्छेदक घटत्वे तत्र प्रतियोगिता अवच्छेदकत्वम् अस्ति तत् अत्रापि अवच्छेदकत्वम् अस्ति मूल अथवा अग्रभागनिष्ठ अवच्छेदकत्वम् अस्ति किन्तु एतद् भिन्नम् अस्ति इति उक्तम् अतः इदानीं तत्र बहवः प्रश्नाः भवेयुः तत्र नाम व्याप्यवृत्तिः इति किञ्चित् उदाहरणं दत्तम् अव्याप्यवृत्तिः इति किञ्चित् उदाहरणं दत्तम् इदानीं तत्र अवच्छेदकमपि अस्ति अवच्छेदकस्य विषये किञ्चित् पूर्वम् अस्माभिः पठितं किन्तु इदानीं तत्र एतत् सर्वं करपत्रस्य पठनेन बहु स्पष्टं भवति इति मन्ये अतः तत्र मूलप्रश्नः अत्र किम् अस्ति इत्युक्ते तत्र रूपम् इति तत्र
चित्रं
रूपम् इति गुणः तत्र यदि पटे रूपम् अस्ति इति चिन्तयामः एतद् रूपं पटे व्याप्यवृत्ति अस्ति अथवा अव्याप्यवृत्ति अस्ति इति प्रश्नः मूलप्रश्नः सः एव नाम यत् कपिसंयोगः इति दृष्टान्तम् उदाहरणं दत्तमस्ति तथा अस्ति वा रूपं नाम एकस्मिन् देशे एव अस्ति वा गुणः अथवा गुणः इति तत्र रूपम् इति गुणः सर्वत्र वर्तते वा पदार्थे नाम व्याप्यवृत्तिः अस्ति वा अथवा अव्याप्य अस्ति वा रूपम् इति मूलप्रश्नः तत्रैव तत् एषः प्रश्नः तु महान् प्रश्नः अस्ति अस्मिन् विषये बहु किमपि वक्तुं शक्नुमः यतोहि मतभेदः अस्ति प्राचीनानां मतं भिन्नं नव्यानां मतं भिन्नम् अतः तत्र तस्मिन् विषये चर्चा बहु किमपि जाता अस्ति किन्तु वयं तत्र करपत्रपठनेन यावत् आवश्यकं तत् सम्यक् रीत्या अवगच्छामः तर्हि तत्र करपत्रं लिङ्क् मया प्रेषितमस्ति अत्रापि तत्र अहं स्क्रीन् शेर् करोमि तर्हि तत्र किन्तु स्वरूपमहोदयस्य करपत्रं पठामः तर्हि इदानीम् अग्रे तदनन्तरं यदि पुनः तत्र विद्याधरीम् आगच्छामः बहु समीचीनं भवति अस्तु एतदेव करपत्रमस्ति दृश्यते इति मन्ये अस्तु तर्हि तत्र इदानीं हा अस्तु समीचीनं तर्हि तत्र अस्तु तर्हि तत्र पुष्पा भगिनी उक्तवती न पठामि इति अस्तु तर्हि तत्र चन्द्रमती भगिनी आरम्भं करोति वा उषा भगिनी धन्यवादः चन्द्रमहोदय धन्यवादः चन्द्रमती भगिनी दृश्यते
गुणस्य व्याप्य अव्याप्य च वृत्तित्वं प्राचीनानां मतानुसारं रूपं सप्तविधं तत्र सप्तसु अन्यतमं चित्रं नवनैयायिकाः इदं सप्तमं न मन्यते प्राचीन नैयायिकाः वदति रूपं सप्तविधम् अस्ति किन्तु नवीननैयायिकाः तादृशं न स्वीकरोति
व्याप्यवृत्तिमर्थम् इति अग्रे
भिन्न भिन्न अभिप्रायः अस्ति व्याप्यवृत्तित्वस्य तत्सम्बन्ध सम्बद्धशब्दानां च अर्थः व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं तादृशशब्दानाम् अर्थं किम् अस्ति इति अधः दत्तमस्ति रूपं व्याप्यवृत्ति इति प्राचीनानां मतम् अव्याप्यवृत्ति इति नवीनानां मतं यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तद् द्रव्यं व्याप्य तिष्ठति तद् रूपं तस्मिन् द्रव्ये सर्वत्र भवति इत्यर्थः तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न अपि तु सर्वत्र एव अपरेषु शब्देषु यस्मिन् द्रव्ये तद् रूपं तिष्ठति तत्र द्रव्यं पूर्णतया आवृत्य तिष्ठति तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः
इति तावत्
रूपं व्याप्यवृत्तिः इति प्राचीनानां मतम् अव्याप्यवृत्तिः इति नवीनानां मतम् रूपं कथमस्ति इति प्राचीनाः प्राचीननैयायिकाः वदति रूपम् इति व्याप्यवृत्तिः किन्तु नवीननैयायिकाः वदति रूपम् इति अव्याप्यवृत्तिः यथा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तद् द्रव्यं व्याप्य तिष्ठति तस्मिन् द्रव्ये सर्वत्र भवति इति अर्थः व्याप्यवृत्तिः इति वदति चेत् तस्य अर्थः अस्ति तद् एकस्मिन् द्रव्ये सर्वत्र तिष्ठति व्याप्य सर्वत्र व्याप्य तिष्ठति इति
यदि वयं वदामः तत्र रक्तपुस्तकं रक्तवर्णपुस्तकं तर्हि तत्र रक्तरूपं पुस्तके अस्ति चेत् तत्र पुस्तके कुत्र वर्तते
सर्वत्र वर्तते व्याप्य
वर्तते व्याप्य वर्तते इति प्राचीनानां
मतमस्ति तदेव व्याप्य इति शब्दस्य अर्थः तस्य पूर्णतया सर्वत्र पश्यति सर्वत्र वर्तते तस्य द्रव्यस्य एकस्मिन्नेव भावे भवति इति न अपि तु सर्वत्र एव एकं पटं रक्तवर्णपट अस्ति चेत् तत्र पूर्वतया सर्वत्र एतत् रक्तवर्ण तिष्ठति एकभागे इति न सर्वत्र अस्ति अपरेषु शब्देषु यस्मिन् द्रव्ये तद्रूपं तिष्ठति तत् द्रव्यं पूर्णतया आवृत्य तिष्ठति तस्मिन् द्रव्ये पूर्णतया व्याप्य भवति सः गुणः रूपम् इति गुणः तत् अल तस्मिन् द्रव्ये पूर्ण अपरेषु शब्देषु अन्यशब्दं उपयुज्य वदति चेत् अपरेषु शब्देषु यस्मिन् द्रव्ये तद्रूपं तिष्ठति तद् द्रव्यं पूर्णतया आवत्य तिष्ठति एकस्मिन् द्रव्यम् उदाहरणं स्वीकरोति चेत् द्रव्यस्य रूपं तत्रापि पूर्णतया सर्वत्र आवृत्य द्रव्यम् आवृत्य तिष्ठति
समीचीनं केवलं स्पष्टीकरणार्थं तत्र तत् द्रव्यम् इति अस्ति तत्र तत् इत्युक्ते किम्
यस्मिन् द्रव्ये तत् रूपम् इत्युक्ते वर्णं तत्र
नाम तत्र तत् रूपं तत् रूपं तत् रूपम् इति अस्ति खलु इदानीं तत्र तत् रूपं कुत्र अस्ति हा
तद् रूपं तस्मिन् यस्मिन् द्रव्ये रूपं तिष्ठति तद् द्रव्यं तद् रूपं तस्मिन् द्रव्ये सर्वत्र भवति
तत्र तत् तद् रूपं तत् रूपम् इति अस्ति तिष्ठति तद् इति अस्ति तद् नाम किं
तद् रूपम् इत्युक्ते रक्तवर्णः वा पीतवर्णः वा
रूपं तद् रूपं तद् रूपं द्रव्यं पूर्णतया आवृत्य द्रव्यमिति कर्मपदं रूपमिति कर्तृपदं रूपं द्रव्यम् आवृत्य तिष्ठति
तिष्ठति तस्मिन् द्रव्ये पूर्णतया व्याप्य भवति सः गुणः अनन्तरं
समीचीनं समीचीनम् अतः तत्र सर्वत्र वर्तते इति अस्तु समीचीनं धन्यवादः भगिनी
प्रश्नः अस्ति तत् किमर्थं तत् द्रव्यं पूर्णतया किमर्थं तत् द्रव्ये पूर्णतया न
आवृत्य आवृत्य नाम द्रव्ये वर्तते किन्तु व्याप्य इति अथवा व्याप्य इति आवृत्य इति तत्र आवरणम् इति तस्मिन् अर्थे यदि वदामः तत्र वर्तते इति नास्ति तत्र व्याप्य इति अस्ति चेत् तत्र कर्मपदरूपेण एव भवति
अस्तु महोदय
अतः तत्र अधिकरणम् इति न भवति कर्मपदं तत्र व्याप्य इति अत्र आवृत्य अतः तत्र वर्तते इति तादृशं नास्ति आवरणम् इति अतः तत्र आवरण अतः तत्र कर्मपदं महोदय
अस्तु महोदय आवरणं आवरणं द्रव्य
आवृत्य आवृत्य तिष्ठति द्रव्यम् आवृत्य तत् नाम द्रव्यं
तत् तिष्ठति खलु तत् तिष्ठति
आवृत्य तिष्ठति आवृत्य तिष्ठति
आवृत्य विशेषणं वा
आवृत्य इति लभन्तम्
कृत्वा इति
अतः तत्र व्याप्य तिष्ठति तिष्ठति इति तदा तत्र अधिकरणम् इति अर्थः भवति किन्तु कर्मपदरूपेण एव तत्र आवृत्या अस्ति इति कृत्वा किम् आवृत्य इति एव भवति अतः एव तत्र कर्मपदरूपं स्वीकृतम् अत्र
अस्तु महोदय
अस्तु अग्रे तत्र मृणालिनी भगिनी अग्रे पठामि हा पद्मा भगिनी अस्तु अग्रे पठतु भगिनी मृणालिनी भगिनी इदानीं पठतु
अधुना
कीदृशः इति
पद्मा भगिनी अग्रे इदानीं रणदीप् भगिनी पठेत् तदनन्तरं भवती पठतु समीचीनं वा अस्तु धन्यवादः
अधुना व्याप्यवृत्ति इति शब्दः कीदृशः इति बोध्यम् रूपं व्याप्यवृत्तिः गुणः इति वाक्यम् अवलोकयाम। व्याप्यवृत्ति विशेषणम् अस्ति, त्रिषु लिङ्गेषु च भवति, अत्र च पुंसि। पुंलिङ्गे हरिशब्दः इव व्याप्यवृत्तिः, स्त्रीलिङ्गे मतिशब्दः इव व्याप्यवृत्तिः, नपुंसकलिङ्गे वारिशब्दः इव व्याप्यवृत्ति। अतः व्याप्यवृत्तिः गुणः, व्याप्यवृत्तिः संख्या, व्याप्यवृत्तिरूपम्। एतादृशं भवति वाक्यं। ध्येयं यत् वृत्तिशब्दः नियतलिङ्गशब्दः, स्त्रीलिङ्गः स्त्रीलिङ्गकः। ध्येयं यत् वृत्तिशब्दः नियतलिङ्गशब्दः, स्त्रीलिङ्गः स्त्रीलिङ्गकः। परन्तु व्याप्यवृत्ति इति समस्तपदम्।
उपरितने परिच्छेदे तत्र रूपं व्याप्यवृत्ति इति एव आसीत्, व्याप्यवृत्तिः इति नासीत् खलु, तत्र विसर्गः नासीत्। अतः तस्य विवरणं दीयते। अस्तु, अग्रे पुनः एकवारं पङ्क्तिशः पठित्वा वदतु भगिनि।
अधुना व्याप्यवृत्ति इति शब्दः कीदृशः इति बोध्यम्। तस्य लिङ्गं किम् अस्ति इति वयं पश्याम। रूपम्
इति बोध्यं नाम कीदृशः इति बोध्यं नाम अस्माभिः कर्मणि, अस्माभिः करणीयं।
रूपं व्याप्यवृत्तिः गुणः, अत्र गुणः अस्ति, अतः व्याप्यवृत्तिः गुणः, गुणः पुल्लिङ्गे, तर्हि व्याप्यवृत्तिः गुणः। विशेषणविशेष्यभावस्ति अत्र। अनन्तरम् इति वाक्यम् अवलोकयाम। व्याप्यवृत्तिविशेषणम् अस्ति, त्रिषु लिङ्गेषु च भवति, अत्र च पुंसि। अत्र अर्थात् अत्र यदा गुणः वयं लिखितवन्तः, व्याप्यवृत्तिः गुणः, अत्र च पुंसि। पुंलिङ्गे हरिशब्दवत् व्याप्यवृत्तिः अस्ति पदं, तर्हि हरिः हरि हरयः तादृशं वा?
तथैव
पुंलिङ्गे हरिशब्दवत् शब्दः इव व्याप्यवृत्तिः, स्त्रीलिङ्गे मतिशब्द इव, यथा मतिः मती मतयः, तर्हि स्त्रीलिङ्गे वयं कथं वदामः, व्याप्यवृत्तिः संख्या इति वदामः। अनन्तरं नपुंसकलिङ्गे वारिशब्द इव, तर्हि वारि वारिणी वारीणि इति शब्दः अस्ति खलु, तर्हि प्रथमपुरुषे प्रथमविभक्ति एकवचने वारि, अतः तत्र वाक्यं भवति व्याप्यवृत्तिरूपं नपुंसकलिङ्गं यदि। ध्येयं यत् वृत्तिशब्दः नियतलिङ्गशब्दः, आम् स्त्रीलिङ्गकः एव, परन्तु व्याप्यवृत्ति इति समस्तपदमस्ति। अस्य विषये
नाम यद्यपि वृत्तिः इति शब्दः सर्वदा नियतलिङ्गशब्दः नाम तत्र वृत्तिः इति विशेषणं भवतु, अन्यत् किमपि सन्दर्भः भवतु, किन्तु सर्वदा तस्य लिङ्गभेदः न भवति, एकमेव लिङ्गं तस्य भवति, सर्वदा स्त्रीलिङ्गकः शब्दः भवति वृत्तिः। किन्तु यदि वयं समस्तपदं कुर्मः, समस्तपदे तत्र लिङ्गपरिवर्तनं भवितुम् अर्हति, अतः अत्र व्याप्यवृत्तिः इति अस्ति, अतः समस्तपदमस्ति, अतः तत्र लिङ्गपरिवर्तनं भवितुम् अर्हति। अतः एव तत्र व्याप्यवृत्तिः इति तत्सर्वं भवति, किन्तु वृत्तिः अस्ति चेत् तत्तु हरिशब्दवत् एव, क्षम्यतां मतिशब्दवत् एव स्त्रीलिङ्ग ह्रस्वैकारशब्दः।
आचार्य, पूर्वमपि अस्य विषये किञ्चित् चिन्तितम् आसीत्, तिङ् प्रत्ययः अस्ति खलु, तिङ् प्रत्ययः, यथा मनः मन् योगः तिङ् प्रत्ययः, मतिः शब्दः उत्पद्यते, गम योगति गतिः परिमतिः गति एते नित्य स्त्रीलिङ्गकः
इति इति अस्ति इति अस्ति भगिनि तथैव अस्ति इति मन्ये हा समीचीनं हा तथैव अस्ति हा अस्तु धन्यवादः भगिनि समीचीनं हा अस्तु इदानीम् अग्रे पद्मा भगिनी अग्रे पठतु इदानीम्
अस्तु अग्रे एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति अत्र प्रश्नः उदेति पुस्तके व्याप्य तिष्ठति उत पुस्तकं व्याप्य तिष्ठति द्वयोः मध्ये किं स्यात् दि उपसर्गपूर्वकः आप् धातुः लटि व्याप्नोति आवरणं करोति इत्यर्थः अत्र व्याप्य तस्य लपन्तं रूपं ल्यपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं व्याप्य इति ल्यबन्तेन अन्वयः वायुः वृक्षं व्याप्य तिष्ठति तथा अग्रे एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति इति एकवाक्यं वयं स्वीकुर्मः तत्र प्रश्नः आगच्छति पुस्तके व्याप्य तिष्ठति इति सप्तमी आगच्छति वा अथवा पुस्तकं व्याप्य तिष्ठति इति कर्मपदरूपेण आगच्छ द्वितीया आगच्छति वा इति प्रश्नः आगच्छति अत्र सङ्ख्या इति गुणः पुस्तकम् इति गुणि अस्ति तत्र सप्तमी आगच्छति वा द्वितीया आगच्छति वा इति प्रश्नः आगच्छति दि उपसर्गपूर्वकः आप् धातुः लटि व्याप्नोति व्याप्नोति इति चेत् दि उपसर्गपूर्वकम् आप् धातुः तत्र आवरणं करोति इति तस्य अर्थः अत्र व्याप्य तस्य लभ्यन्तं रूपं व्याप्य इति पदं तस्य व्याप्नोति इति पदस्य लभन्तं रूपम् अस्ति अत्र ल्यप्ति कर्म गृह्यते तद् कर्म अस्मिन् वाक्ये तद् कर्मरूपेण तिष्ठति व्याप्य इति पदम् अतः
कर्मरूपेण नाम तत्र यदि तत्र धातुः अथवा तत्र तत्र धातुः अत्र उपसर्गसहितधातुः सकर्मकः अस्ति चेत् लेबन्ते कर्मपदं स्वीकरोति हा कर्मपदं गृह्यते
अतः तत्र पुस्तकशब्दे कर्मपदत्वम् आगच्छति व्याप्य इति लेबन्तेन एव तद् साधु भवति तद् उदाहरणं दत्तवन्तः वायुः वृक्षं व्याप्य तिष्ठति इत्येव शुद्धं वाक्यं वायुः वृक्षे व्याप्य तिष्ठति इति न आगच्छति तथा एव
अत्र एषः एव प्रश्नः तत्र अशोकमहोदयस्य आसीत् इति मन्ये खलु महोदय
आं महोदय इदानीं स्पष्टम्
समीचीनं महोदय अस्तु
तत् द्रव्ये तिष्ठति न तत् द्रव्यं व्यापयति इति
हा इति हा तद् व्याप्य द्रव्यं व्याप्य द्रव्ये तिष्ठति इति अपि वक्तुं शक्नुमः किन्तु तत्र द्रव्यं व्याप्य एव रूपं साधु भवति अस्तु समीचीनम् अस्तु महोदय भवान् एव तत्र अग्रे पठति वा
अस्तु महोदय परन्तु कपि संयोगः परन्तु कपिसंयोगः वृक्षे अव्याप्यवृत्तिः अत्र वृक्षस्य अधिकरणकारकं न तु कर्मकारकं यतोहि व्याप्यशब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन न तु समासात् बहिः ततः अग्रे कपिसंयोगस्य वृत्तित्वं कुत्र इति चेत् वृक्षे समस्तपदं यदा कुर्मः तदानीं समस्तपदस्य यः समग्रः अर्थः सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यं यथा अत्र अव्याप्यवृत्तिः इत्यस्य समग्रः यः अर्थः सः अर्थः वृक्षेण सह सम्बध्यते केवलं व्याप्यपदस्य अन्वयः अपेक्षितः यदा तदा समस्तपदस्य अन्तर्गते एव चिन्तनीयम् यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते कपिसंयोगवृत्तित्वं वृक्षे भवति व्याप्यशब्दस्य अन्वयः वृक्षेण नास्ति अपि तु वृत्तिशब्देन न व्याप्य अव्याप्य अव्याप्य अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः बहुव्रीहि समासः यबन्तं पदम् अव्ययम् अव्ययानां च बहुव्रीहि समासः भवति यथा उच्चैः मुखं यस्य सः उच्चैर्मुखः तर्हि आहत्य अव्याप्यवृत्ति इति पदे अव्याप्य इत्यस्य साक्षात् वृत्तित्वा अन्वयः किन्तु बहुव्रीहेः अन्यपदार्थप्राधान्यत्वात् पदस्य समग्रार्थः अन्वेति कपिसंयोगः इति गुणेन अधिकरणत्वात् वृक्षेण च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः
तत्र प्रायशः एतावत् तत्र तत्र व्याकरणरीत्या तत्र वाक्यस्य तत्र अंशाः के इति दत्तमस्ति एकवारम् अवलोकयामः किन्तु एषः मूलविषये नास्ति अग्रे सरामः किन्तु एकवारं परिशीलयामः न वदतु महोदय तर्हि तत्र
परन्तु कपि संयोगः वृक्षे अव्याप्यवृत्तिः
नाम दृष्टवन्तः वृक्षं व्याप्य इति अस्ति किन्तु इदानीं किम् अभवत् कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति अस्ति खलु
आम्
कपिसंयोगः वृक्षम् अव्याप्यवृत्तिः इति नास्ति कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति अस्ति किमर्थम् इति नाम तत्र किमर्थं सप्तमी विभक्ति इति प्रश्नः
अत्र वृक्षस्य अधिकरणकारकम्
अधिकरणकारकं नाम अधिकरणं नाम अधिकरणकारकं नाम येन तत्र सप्तमीविभक्तिरूपं स्वीक्रियते नाम अधिकरणं यत्र यत्र यदि इति वक्तुं वयं सप्तमी तस्य प्रयोगः भवति खलु
अस्तु कारकं नाम कर्ता वा
न कारकम् इति तत्र क्रियापदस्य कीदृश अन्वयः इति कृत्वा तत्र कारकं प्रत्येक तत्र कारकम् इति कारणेन विभक्तिरूपं भवति तत्र कर्मकारकं नाम तस्य पदस्य कर्मकारकं भवति चेत् पदस्य द्वितीयविभक्तिरूपं भवति
अस्तु पदस्य कारकं पदार्थस्य कारकं कारणं न
पदस्य नाम तत्र पदस्य कारकं भवति वाक्ये किमपि पदमस्ति तस्य अन्वयः क्रियापदेन कीदृशः अन्वयः सम्बन्धः इति दृष्ट्वा तस्य नाम तादृशसम्बन्धः कारकम् इति वदामः कारकं दृष्ट्वा तत् अधिकरणकारकमस्ति चेत् अस्तु तत्र क्रिया कुत्र भवति अस्तु क्रिया वृक्षे भवति अतः तत्र अधिकरणं वृक्षे अधिकरणवृक्षं तत्र अधिकरणकारकम् अतः तत्र वृक्षे इति सप्तमीरूपं भवति अथवा तत्र कुत्र गच्छति अथवा किं स्वीकरोति इत्युक्ते तत्र किम् इति अस्ति इति कृत्वा कर्मकारकं तर्हि द्वितीयविभक्ति अतः तत्र अधिकरणकारकं नाम सप्तमीविभक्ति वृक्षस्य सप्तमीविभक्ति अस्ति न तु द्वितीयाविभक्ति अस्ति इति एव सारांशः
अन्वयः नाम सम्बन्धः वा महोदय
सम्बन्धः हा सम्बन्धः
अतः वृक्षः वृत्तेः अव्याप्यवृत्तेः अधिकरणः अस्ति अतः वृक्षे इति सप्तमी विभक्त्याम् अस्ति
इति किमर्थम् इति अग्रे दत्तमस्ति
ततः अग्रे कपिसंयोगस्य वृत्तित्वं कुत्र इति चेत् वृक्षे
कपिसंयोगस्य वृत्तित्वं नाम कपिसंयोगः कुत्र वर्तते इति चेत् वृक्षे वर्तते
समस्तपदं यदा कुर्मः तदानीं समस्तपदस्य यः समग्रः अर्थः सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यम्। अतः यदि समस्तपदमस्ति तस्य आहृत्य कः अर्थः इति चिन्तयामः।
अपि तत्र यदि समस्तपदं वाक्ये योजयामः तत्र समीचीन अर्थः अस्ति न वा इति द्रष्टव्यम्। अत्र समस्तपदमस्ति अव्याप्यवृत्तिः इति समस्तपदम्। अव्याप्यवृत्तिः इति समस्तपदं तत्र वाक्ये कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति अस्ति वाक्यं। तत्र अव्याप्यवृत्तिः इति समस्तपदम् अस्ति अतः तत्र
अतः पूर्वसमस्तपदस्य अर्थं द्रष्टव्यम् इति अव्याप्य इति न अव्याप्यवृत्ति कः इति कुत्र इति
तत्र द्रष्टव्यम्। समीचीनं यदि केवलं व्याप्य इति चिन्तयामः तत्र वृक्षं व्याप्य इति भवति, अत्र वृक्षम् अव्याप्य इति भवति। तदा केवलं वृक्षम् इति तत्र तादृशम् अन्वयः भवति, किन्तु इदानीं तत्र वृक्षः एव किन्तु अन्यरीत्या तत्र कपिसंयोगः कुत्र अस्ति इत्युक्ते तत्र वृक्षे वर्तते इति। अतः तत्र वृत्तिः कपिसंयोगेन अन्वेति न तु वृक्षेण सह साक्षात्।
यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते, कपिसंयोगवृत्तित्वं वृक्षे भवति। पूर्वोक्तविषये एव कपिसंयोगवृत्तित्वं वृक्षे अस्ति, अतः सप्तमी विभक्ति इति। व्याप्यशब्दस्य अन्वयः वृक्षेण नास्ति अपि तु वृत्तिशब्देन। व्याप्य
यतोहि
सः गच्छति
गच्छति व्याप्यवृत्तिः। तत्र वृत्तिः कीदृशः अथवा कीदृशी इत्युक्ते व्याप्यवृत्तिः अस्ति इति, अतः तत्र तयोः मध्ये एव सम्बन्धः।
न व्याप्य अव्याप्य अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः बहुव्रीहि समासः यस्य अव्याप्यवृत्तिः अस्ति सः अव्याप्यवृत्तिः इति।
अत्र अत्र कुत्र सः कः इत्युक्ते सः कपिसंयोगः एव कपिसंयोगस्य एव अव्याप्यवृत्तिः अस्ति, अतः सः कपिसंयोगः अव्याप्यवृत्तिः अस्ति।
कपिसंयोगः वृक्षे अस्ति अतः अव्याप्यवृत्तिः वृक्षे अस्ति। ल्यबन्तं पदम् अव्ययम् अव्ययाञ्च बहुव्रीहि समासः भवति। अव्ययं विभक्ति न प्राप्नोति नास्ति
तत्र नाम रूपपरिवर्तनं न भवति, नाम कृत्वा आगत्य इति तत्र ल्यबन्तं वा त्वान्तं वा तत्र सः आगत्य अहम् आगत्य ते आगत्य अतः तत्र रूपपरिवर्तनं नास्ति, अव्ययम् अस्ति। अव्ययानां बहुव्रीहि समासः भवति
भवति। यथा उच्चैः मुखं यस्य सः उच्चैर्मुखः। बहुव्रीहि कः इति विवरणम् इति अहं मन्ये।
हा बहुव्रीहि समासः उदाहरणं तत्र उच्चैः इति अव्ययमस्ति इति कृत्वा उच्चैर्मुखम् इति बहुव्रीहि समासस्य उदाहरणं, यत्र प्रथमपदम् अव्ययमस्ति।
बहुव्रीहि शब्दः अपि बहुव्रीहि समासस्य उदाहरणं खलु। यस्य बहुव्रीहि सन्ति सः बहुव्रीहि।
सत्यं महोदय सत्यं। हा नाम अन्यपदप्राधान्यं तत्र बहुव्रीहि समासः इत्युक्ते अन्यपदप्राधान्यम्।
तर्हि आहत्य अव्याप्यवृत्ति इति पदे अव्याप्य इत्यस्य साक्षात् वृत्तित्व अन्वयः, किन्तु बहुव्रीहेः अन्यपदार्थप्रधानत्या प्राधान्यत्वा प्राधान्यत्वात् पदस्य समग्रार्थे अन्वेति कपिसंयोगः इति गुणेन अधिकरणत्वात् वृक्षेण च अन्य अव्याप्यपदस्य सम्बन्धः वृत्तिः पदेन सह अस्ति. पूर्वं यत् चर्चयामः तद् विषयमेव तस्य विवरणम् इति मन्ये.
विस्तररूपेण विवरणम् अस्ति अतः तत्र
समग्रार्थः
कपिसंयोगः तत्र समग्रार्थः अन्यपदप्राधान्यं भवेत् नाम अन्यपदमेव
वृत्तिपदस्य एव प्राधान्यम् अतः बहुव्रीहि कपिसंयोगः
इत्युक्ते बहुव्रीहि नाम अन्यपदप्राधान्यम् अत्र अव्याप्य इति अपि प्राधान्यं नास्ति वृत्तिः इति नास्ति
यस्य वृत्तिः अस्ति
तत्र अत्र कपिसंयोगः इति कपिसंयोगः इति गुणः यः अस्ति तेन सह अन्वेति तत्र तत्रैव सम्बन्धः अस्ति. अपि अधिकरणत्वात् नाम तत्र तत् कुत्र वर्तते इति कृत्वा वृक्षेण सह अन्वयः भवति अतः एव कपिसंयोगः वृक्षे अव्याप्य वृत्तिः इति वक्तुं शक्नुमः.
अस्तु महोदय.
अस्तु धन्यवादः. अस्तु अग्रे तत्र तत्र हा नरसिंह महोदय अग्रे पठति वा. नमस्कारः. किन्तु कपिसंयोगः
वृक्षम् अव्याप्य तिष्ठति अत्र अव्याप्य इति लेबन्तं पदं कर्मपदं गृह्णाति कर्ता कपिसंयोगः वृक्षः च कर्मपदं कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः. यदा वयं वदामः कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति अत्र अव्याप्य इति लेबन्तरूपमस्ति वि उपसर्गपूर्वकः एतत् कर्मपदं गृह्णाति अत्र कर्ता कपिसंयोगः अस्ति वृक्षः कर्मपदमस्ति इत्युक्ते तस्य अर्थः भवति कपिसंयोगः वृक्षं न व्याप्नोति व्याप्यं न तिष्ठति अथवा न व्याप्नोति इति वाक्यस्य अर्थः भवति.
अस्तु समीचीनं महोदय. अग्रे अपि
ध्येयं यत् अत्र व्याप्य इति लेबन्तपदं किन्तु व्याप्यम् इति व्याप्यमिति कर्मण्यर्थकं विशेषणं ण्यत्प्रत्ययान्तम् अतः व्याप्य इति लेबन्तात् व्याप्य इति ण्यदन्तं च पूर्णतया भिन्नं पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति मानि पदानि ण्यत्प्रत्ययान्तानि व्याप्यः इत्यस्य विपरीतार्थं पदं नूल् प्रत्ययान्तं व्यापकं यः व्याप्नोति सः व्यापकः यं व्याप्नोति सः व्याप्य किन्तु अत्र कपिसंयोगवृक्षम् अव्याप्य तिष्ठति इति वाक्ये अव्याप्य इति लेबन्तं पदम् अन्यच्च व्याप्य इति यथा तथैव आवृत्य अपि लटि आवृणोति अर्थः सः एव समानः आवरणं करोति इति अत्र व्याप्य इति लेबन्तपदं किन्तु व्याप्यम् इति कर्मण्यर्थकं विशेषणं ण्यत्प्रत्ययान्तं व्याप्य इति लेबन्तं यदि व्याप्यम् इति वदामः चेत् तत् ण्यत्प्रत्ययान्तं भवति इति तत्र भिन्नता वर्तते इति
अतः व्याप्य ध्येयं तत्र कार्यं नाम करणीयं नाम कार्यं वदनीयं वक्तव्यं नाम वाक्यम् एतावद् भवति खलु अतः तत्र पेयं खाद्यं कार्यं वाक्यम् एतत् सर्वं ण्यत् प्रत्ययान्तानि
अतः व्याप्य इति लेबन्तपदं व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नं व्याप्य अनन्तरं व्याप्यः एकमस्ति लेबन्तम् एकं नेदन्तं यथा पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति मानि पदानि ण्यत्प्रत्ययान्तानि व्याप्यः इत्यस्य विपरीतार्थकं पदं नूल् प्रत्ययान्तं व्यापकं व्याप्यः इति ण्यन्तपदं यत् अस्ति तस्य विपरीतार्थपदम् अस्ति व्यापकमिति तदपि महोदय व्यापकं
न तत्र व्यापकम् इति नूल् प्रत्ययान्तम्
व्यापकं यः व्याप्नोति व्यापकम् अनन्तरं व्याप्य इत्यस्य मध्ये भिन्नता तत्र अर्थभेदः किम् इत्युक्ते यः व्याप्नोति सः व्यापकः भवति यं व्याप्नोति सः व्याप्यः भवति इदानीं कपिसंयोगं पश्यामः चेत् यः व्याप्नोति सः व्यापकः यं व्याप्नोति इत्युक्ते वृक्षं व्याप्नोति इत्युक्ते सः व्याप्य यः व्याप्नोति सः व्यापकः अत्र कपिसंयोगः व्यापकः वृक्षं व्याप्य तादृशं
अव्याप्य इति अस्ति किन्तु अन्यत् उदाहरणं यत्र पूर्वमासीत् खलु तत्र वायुः वृक्षं व्याप्य तिष्ठति पूर्वमासीत् खलु वायुवृक्षं व्याप्य तिष्ठति तर्हि तत्र तत् स्वीकुर्मः यतोहि स्पष्टं भवति तर्हि वायुः वृक्षं व्याप्य इति अस्ति तर्हि व्यापकः कः
इति वायुः व्यापकः अस्ति व्यापकः वायुः व्याप्यः वृक्षः
इति अस्ति समीचीनं महोदय तर्हि तत्र वायुः व्यापकः वृक्षः व्याप्यः हा इति अस्ति समीचीनं हा तत्र व्यापकः मध्ये
इदानीं
नूल् प्रत्ययः व्याप्य मध्ये ण्यत् प्रत्ययः
न्यबन्तं
न्यबन्तं नास्ति व्याप्यः इति तत्र
तत्र विसर्गः अस्ति व्याप्य इति अनन्तम्
अस्ति
किन्तु अत्र कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति वाक्ये अव्याप्य इति लबन्तं पदम् अन्यस्य व्याप्य इति समानः आवरणं करोति इति अत्र विषये वदामः चेत् तत्र व्याप्य इति लबन्ति वा इति अत्र दत्तमस्ति
हा अस्तु 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 महोदय हा धन्यवादः
अत्र लेबन्तं
लेबन्तं हा तर्हि तत्र एतत् केवलं स्पष्टीकरणार्थं नाम तत्र अग्रे गत्वा तत्र व्याप्यः इति पदं पठामः अपि तत्र व्यापकः इति पदं पठामः अव्याप्य अव्याप्य इति अपि आसीत् इति कृत्वा तयोः मध्ये भेदः अस्ति इति स्पष्टता भवेत् इति एतत् सर्वं तत्र दत्तमस्ति एतावत् तत्र व्याकरणस्य शिक्षा
इदानीं विसर्गपूर्वकम् अस्ति चेत् केवलं विसर्गः नास्ति चेत्
जबन्तं हा इति अस्ति समीचीनं हा इदानीम् अग्रे गत्वा तत्र व्याप्यवृत्तित्वम् इति शब्दस्य न्यायशास्त्रे कीदृशव्यवहारः भवति इति अग्रे पठामः एष इदानीं तत्र एतावत् व्याकरणविषयः आसीत् इदानीम् अस्माकं मूलविषयः इदानीम् आगतं धन्यवादः महोदय अस्तु इदानीं तत्र अग्रे विमला भगिनी अग्रे पठति वा धन्यवादः महोदय
आं महोदय नमस्कारः
नमस्कारः भगिनि
व्याप्यवृत्तित्वशब्दस्य व्यवहारः व्याकरणदृष्ट्या परिशीलितम् अधुना व्याप्यवृत्तिः इत्यस्य कीदृशव्यवहारः इति पश्येम यथा एकं पुस्तकं वर्तते तस्मिन् एकत्वम् इति सङ्ख्या अस्ति एकत्वम् इति सङ्ख्या व्याप्यवृत्तिः गुणः अतः एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति किन्तु संयोगः न तथा संयोगः इति कश्चन गुणः स च अव्याप्यवृत्तिः इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति तद् द्रव्यं व्याप्य न तिष्ठति यथा इदानीं कस्यचित् हस्तस्य भित्त्या संयोगः अस्ति इति चिन्तयतु हस्ते वा भित्तौ वा सः संयोगः सर्वात्मना सर्वत्र न भवति हस्तः भित्ते एकस्मिन् देशे संयुक्तः हस्तस्य भित्ते एकदेशे हस्तस्य भित्तेः एकदेशे संयोगः अतः अयं संयोगः इति गुणः अव्याप्यवृत्तिः हस्तः भित्तौ पूर्णतया भित्तिं व्याप्य न तिष्ठति इति वस्तुस्थितिः अत्र व्याप्यवृत्तित्वशब्दस्य व्यवहारः इत्युक्ते किमिति परिशीलितमस्ति इति उक्तमस्ति अत्र व्याप्यवृत्ति इत्यस्य कृते यत् उदाहरणं दत्तं पुस्तकस्य उदाहरणमस्ति यदि एकं पुस्तकम् अस्ति तस्मिन् एकत्वमिति सङ्ख्या अस्ति तत् सङ्ख्या पुस्तकं पूर्णतया आवृत्य तिष्ठति इति व्याप्यवृत्तिगुणः भवति अतः एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति परन्तु संयोगस्य विषये यदि परिशीलनं करणीयं चेत् यदा हस्तस्य अपि च भित्तेः संयोगः भवति तत्र यत्र संयोगः अस्ति तत्र एव व्याप्यत्वमस्ति परन्तु तत् व्याप्यवती इति न वक्तुं शक्नुमः यतोहि पूर्णभित्त्या संयोगः नास्ति यत्र संयोगः अस्ति तत्र एव संयोगः अस्ति एतेन कारणात् तत् अव्याप्यवृत्तिः इति भवति संयोगः इति गुणः अव्याप्यवृत्तिः
नाम तत्र भित्तिः या अस्ति तत्र एकस्मिन् भागे संयोगः
अस्ति पूर्णभित्त्या
भागे अन्यस्मिन् भागे तत्र संयोगस्य अभावः वर्तते
अभावः हस्तः नास्ति इति संयोगस्य अभावः अस्ति
वर्तते अतः तत्र संयोगः अपि वर्तते भित्तौ अव्याप्य वृत्तिः
इति अस्ति
इति अस्ति अतः तत्र तर्हि सङ्ख्या इति गुणे
व्याप्यवृत्तित्वमस्ति अपि च संयोगे अव्याप्यवृत्तित्वमस्ति
अस्तु समीचीनं हा इति अस्ति समीचीनं भगिनी धन्यवादः
धन्यवादः
समीचीनम् अस्तु अग्रे धनश्री भगिनी अग्रे पठति वा
आं महोदय अधुना रूपं कीदृशं रूपं व्याप्यवृत्तिः गुणः वा अव्याप्यवृत्तिः गुणः वा इति वार्ता यथा
खलु नाम तत्र चित्ररूपम् इति विषये एषः एव प्रश्नः उदेति अस्तु
यथा कश्चन पटः अस्ति चेत् तस्मिन् पटे यत्किमपि रूपं स्यात् सम्पूर्णं तं पटम् आवृत्य सम्पूर्णं तं पटं व्याप्य तिष्ठति इति चिन्तयन्तु एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत् किञ्चित् रक्तरूपं किञ्चित् नीलरूपम् अस्ति चेत् तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते शुक्लरूपम् अथवा नीलरूपम् अथवा रक्तरूपम् इति न वक्तव्यम् यतोहि पटे शुक्लरूपम् अस्ति इति वदामः चेत् शुक्लरूपं पटस्य एकदेशे भवति सर्वत्र न भवति पटस्य अपरस्मिन् भागे नीलरूपं भवति अतः श्वेतरूपं पटं व्याप्य न तिष्ठति किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः यतोहि श्वेतरूपम् एकत्रैव भवति एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते रूपस्य व्याप्यवृत्तित्वात् तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति प्राचीनैः चित्ररूपम् इत्यस्य स्वीकारः कृतः चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम् अतः पटे चित्ररूपम् अस्ति इति उच्यते तच्च चित्रम् एकमेव अत्र पटस्य उदाहरणं स्वीकृतमस्ति तत्र पटे यत्किमपि रूपं स्यात् सम्पूर्णं तं पटम् आवृत्य सम्पूर्णं तं पटं व्याप्य तिष्ठति इति चिन्तयन्तु नाम पटं कदाचित् एकः एव वर्णस्य अस्ति चेत् तं वर्णं तत् वर्णं तं वर्णं सम्पूर्णं पटम् आवृत्य तिष्ठन्ति इति वयं चिन्तयितुं शक्नुमः. परन्तु यदि तस्मिन् पटे अनेकानां रूपाणां मिश्रीकरणमस्ति, नाम श्वेतरूपम् अस्ति, रक्तरूपं, तत् नीलरूपं वा अस्ति, तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते शुक्लरूपं पटं वा श्वेतरूपं वा नीलरूपम् इति तत्र वयं न वक्तुं शक्नुमः. किमर्थं? यतोहि तत्र वर्णत्रयम् अस्ति, अतः एकस्य एव वर्णस्य रूपं तत्र अस्ति इति वयं न वक्तुं शक्नुमः. प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः एकनिमिषं हा, यतोहि पटे शुक्लरूपम् अस्ति इति वदामः तदभवत्, अतः श्वेतरूपं पटं व्याप्य न तिष्ठति. किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः. ये प्राचीननैयायिकाः आसन् तेषां मतम् अस्ति कि यत् रूपं व्याप्यगुणं, रूपस्य व्याप्यवृत्तिः, रूपं व्याप्यवृत्तिः गुणः. इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः, यतोहि श्वेतरूपम् एकत्र एव भवति. अत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते रूपस्य व्याप्यवृत्तित्वात्. एकत्र एकदेशे एव किञ्चित् रूपम् अस्ति चेत् तद् रूपं सम्पूर्णस्य पटस्य रूपम् इति न वक्तुं शक्नुमः, यतोहि तत् इति एव तत्र
रूपं
गुणः. तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं? प्राचीनैः चित्ररूपम् इत्यस्य स्वीकारः कृतः, नाम एतादृशं यदि अवस्था अस्ति चेत् तत्र किमपि नूतन नामकरणं करणीयम्, अतः चित्र इति तैः तत्र नाम दत्तम्. चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम्, अतः पटे चित्ररूपम् अस्ति इति वयम् अवदामः इति आशयः.
इति आशयः अपि तत्र यत्र चित्रस्य चित्ररूपस्य पुनः भेदाः सन्ति इति न, नाम तत्र यदि श्वेतरूपं नीलरूपं तस्य मिश्रणं भवति तदानीं चित्रमेव, यदि नीलरूपं पीतरूपं तस्य मिश्रीकरणं भवति तदापि चित्रमेव. अतः यत् षट्सु रूपेषु नास्ति षण्णां रूपाणां प्रयोगः, अत्र एतद् रूपम् इति न वक्तुं शक्नुमः, तत्र सर्वत्र चित्ररूपम् इति स्वीकारः. इति अस्ति, अस्तु, समीचीनं, हा, धन्यवादः भगिनि. अस्तु, इदानीम् अग्रे प्रेमदत्ता भगिनी अग्रे.
अस्तु महोदय, किन्तु नवीनाः वदन्ति यत् एवं स्वीकृतं न शक्यते, एवं नाम चित्ररूपस्य इति मन्ये.
सत्यं,
रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यम् इति तेषां मतम्. अनेन एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः. पटस्य एकदेशे श्वेतरूपम्, एकदेशे नीलरूपम् इत्येवं स्वीकार्यं. बहूनि रूपाणि, एकैकमपि रूपम् अव्याप्यवृत्तिः, नाम
अव्याप्यवृत्ति
वारिशब्दवत् वारिशब्दवत् नपुंसकलिङ्गेन. किन्तु नवीनां वदन्ति एतत् नवीननैयायिकाः चित्ररूपम् इति सप्तमं रूपं तद् न अङ्गीकुर्वन्ति. रूपस्य अव्याप्यवृत्तित्वम् इति तेषां मतं, रूपस्य अव्याप्यवृत्तित्वम् अस्ति इति तेषां मतम् अस्ति. अनेन एकस्मिन् पटे, यथा एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः, नाम तस्य चित्ररूपस्य अर्थः एकस्मिन् पटे बहूनि रूपाणि सन्ति, भिन्नभिन्नरूपाणि सन्ति, तत् भवति चित्ररूपम् इति भवति.
न न न तत्र अव्याप्यवृत्तित्वं स्वीकर्तव्यम् इति तेषां मतं खलु.
आम् महोदय.
तदा किं भवति रूपस्य अव्याप्यवृत्तित्वम् इति स्वीकारेण किं भवति एकं रूपं सर्वत्र पदार्थे न तिष्ठति, सर्वत्र न तिष्ठति, अतः अन्यत्र अन्यत् रूपं तिष्ठति. अतः एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तयितुं शक्नुमः इति. यदि व्याप्यवृत्तित्वम् इति स्वीकुर्मः तदा बहूनि रूपाणि सन्ति इति न वक्तुं शक्नुमः. किन्तु अव्याप्यवृत्तित्वम् इति रूपस्य अव्याप्यवृत्तित्वम् अस्ति इति स्वीकारेण अस्तु अस्मिन् पटे बहूनि रूपाणि सन्ति, त्रीणि रूपाणि सन्ति, चत्वारि रूपाणि सन्ति इति वक्तुं शक्नुमः, चिन्तितुं शक्नुमः.
पटस्य एकदेशे श्वेतरूपम्, एकदेशे नीलरूपम् इत्येवं स्वीकार्य बहूनि रूपाणि एकैकमपि रूपम् अव्याप्यवृत्तिः. बहूनि पटे बहूनि रूपाणि सन्ति चेत् तत् एकैकरूपम् एकदेशे वृत्तित्वं भवति.
तत्र एकस्मिन् प्रदेशे देशे अस्ति, अन्यस्मिन् देशे तस्य अभावः वर्तते,
अभावः अस्ति,
अतः अव्याप्यवृत्तिः अस्ति एकैकं रूपमपि इति. अग्रे
अग्रे परिच्छेदः वा. प्राचीनानां मतानुसारं यत्किमपि एकमेव रूपं स्वीकरणीयं, यतोहि एकस्मिन् पटे एकमेव रूपं पटम् व्याप्य तिष्ठति. अतः समग्रे पटे रूपं किम् इति निर्णेतव्यं. समग्रे पटे विद्यमानं रूपं रक्तं न भवति, नीलं न भवति, श्वेतं न भवति, तदर्थं चित्ररूपम् इति निश्चितरूपं स्वीकृतं. प्राचीनानां मतानुसारम् एतत् किमपि रूपम् एकमेव रूपं पटं व्याप्य तिष्ठति इति तेषां मतम्. अतः समग्रे पटे रूपं किम् इति निर्णयं कर्तुं निर्णयं करणीयम्. समग्रे पटे विद्यमान समग्रपटे विद्यमानरूपं रूपं बहूनि सन्ति पटे विद्यमानरूपं रक्तम् एकं रूपम् स्वीकृते रक्तं न भवति, नीलं न भवति, श्वेतं न भवति.
समग्रे पटे इति यदि चिन्तयामः समग्रे पटे रक्तं रूपं न भवति खलु.
समग्रे पटे रक्तरूपं न भवति, नीलरूपम् अपि न भवति, श्वेतरूपम् अपि न भवति, तदर्थं चित्ररूपं नाम रूपाणां मिश्रीकरणम् इति तेषां
स्वीकृतम् इति तैः स्वीकृतम् अस्तु. समीचीनं, धन्यवादः भगिनि. अस्तु गणेश, स्पष्टम् अस्ति इति मन्ये तर्हि तत्र. तर्हि तत्र प्राचीनानां मतं किं, नवीनानां मतं किम् इति अस्ति. अस्तु समीचीनम्. इदानीम् अग्रे सरामः. तर्हि धनश्री भगिनी प्रश्नः.
तत्र महोदय द्वौ अपि सम्यक् एव, तत्र नाम एकं सम्यक् अस्ति अन्यत् सम्यक् नास्ति मतम् इति न दृश्यते.
तत्र वयं कस्मिन् मते स्मः इति प्रश्नः नास्ति, तेषां मतं किमिति केवलं तस्य अवगमनं तावदेव अत्र. अतः तत्र निर्णयः अस्माभिः करणीयः इति नास्ति, केवलं तेषां मतं किमस्ति भेदः कः किमर्थं तादृशं चिन्तितवन्तः इति एव अस्माकं विषयः. समीचीनम्. अस्तु अग्रे तत्र विमला भगिनी प्रश्नः.
महोदय, मतभेदं यदस्ति एतत् केवलं चित्ररूपस्य विषये अस्ति वा एकरूपमस्ति चेदपि अस्ति?
न, रूपं कीदृशं, रूपं कीदृशः गुणः इति.
ओ,
व्याप्यवृत्तित्वम् अस्ति वा रूपे अथवा अव्याप्यवृत्तित्वम् अस्ति वा रूपे इति.
केवलं चित्ररूपस्य विषये नास्ति.
नास्ति नास्ति, गुणः कीदृशः इति अपि. अस्य विषये इदानीं किमर्थं चर्चा इत्युक्ते तत्र व्याप्य व्यापकः इति विषयः अग्रे अपि तत्र अनुमान इति विषये तत्र व्याप्य व्यापकः इति बहुवारम् आगच्छति. यत्र यत्र धूमः तत्र तत्र वह्निः इति अनुमानस्य वाक्यम् अस्ति. तत्र व्याप्य व्यापकः इति एषः तत्र सम्बन्धः बहुत्र वर्तते न्यायशास्त्रे. अतः तस्य तत्र परिचयः अपि अत्र भवति. तत्र व्याप्य व्यापकः अपि अन्यत् अस्ति. अत्र अवच्छेदकस्य तत्र किञ्चित् वयं स्थूलरीत्या उक्तवन्तः, किन्तु अत्र अवच्छेदकस्य अर्थद्वयं वर्तते अपि, तस्य अपि स्पष्टीकरणम् अस्ति अत्र. अतः करपत्रस्य पठनं.
आं महोदय, धन्यवादः.
अस्तु, समीचीनं भगिनि. अस्तु अग्रे तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा?
अव्याप्यवृत्तित्वं व्याधर्या अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वनिदार्थः. अत्र अव्याप्यवृत्तित्वम् इत्यस्य लक्षणं दत्तं. स्वं यस्मिन् द्रव्ये अस्ति तस्मिन् एव द्रव्ये तस्य अभावः अपि अस्ति. हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यता. अत्र अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्त्योः. स्वम् इति सर्वनामपदम्. अत्र स्वम् इत्युक्ते संयोगसम्बद्धः. अधिकरणं भीतिः, अधिकरणे स्वम् इति संयोगसम्बद्धः अपि अस्ति. स्वस्य अभावः इति संयोगसम्बन्ध अभावः अपि अस्ति. यतोहि हस्तभित्त्यो संयोगः भित्तिं व्याप्य न तिष्ठति. अनेन स्वभावस्य अधिकरणे स्वस्य विद्यमानत्व. विद्याधर्यम् अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्व निर्थः. अव्याप्यवृत्तित्वम् इति
योगेन्द्रमहोदयेन पठितं, खलु.
अत्र अव्याप्यवृत्तित्वम् इत्युक्ते एकत्र व्यापकत्वम् अस्ति, अन्यत्र अभावत्वम् अपि अस्ति.
न, एकत्र व्यापकत्वम् इति न वक्तुं शक्नुमः. एकत्र अस्ति
अस्ति, एकत्र अस्ति, अन्यत्र नास्ति.
हा, इति एव. एकत्र व्यापकम् इति न वक्तुं, व्यापकं नाम सर्वत्र अस्ति.
सर्वत्र अस्ति. एकत्र अव्याप्यवृत्तित्वम् इत्युक्ते एकस्मिन् अधिकरणे एकत्र अस्ति, अन्यत्र नास्ति.
हा, एकस्मिन् अधिकरणे तदपि अस्ति, तस्य अभावः अपि अस्ति.
अभावः अस्ति, वर्तमानम् अपि अस्ति, अभावः अपि अस्ति.
हस्तभित्त्योः
संयोगः एकः उदाहरणम् अस्ति. अत्र भित्तौ सर्वत्र नास्ति, एकस्मिन् भागे एव एतत् अवाधि एतत् संयोगः अस्ति
अत्र एकस्मिन् देशे एव एकस्मिन् देशे
एव हस्तभिद्ये संयोगः हस्तभिद्योः संयोगः भवति
यदि तत्र संयोगः भित्तौ सर्वत्र अस्ति चेत् तत्र सः हस्तः महाबृहान् हस्तः खलु अतः तत्र साधारणहस्तः इति चिन्तयामः तत्र अतः एकस्मिन् देशे एव हस्तः हस्तस्य संयोगः अस्ति अतः तर्हि
अतः अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्योः अतः तादृश संयोगः अव्याप्यवृत्तिः संयोगः इति वदति स्वम् इति सर्वनामपदम् अत्र स्वम् इत्युक्ते संयोगसम्बन्धः अधिकरणं भित्तिः अस्ति अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति स्वस्य अभावस्य इति संयोगसम्बन्ध अभावः अपि अस्ति यतोहि हस्तभित्तिसंयोगः भित्तिव्याप्य न तिष्ठति अनेन स्वभाव स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् अत्र संमिति संयोगसम्बन्धः अस्ति हस्तभित्योः संयोगः एव स्वं शब्दस्य अर्थम् एकत्र संयोगः भवति अन्यत्र संयोगः न वर्तते अनेन स्व अभावस्य इत्युक्ते हस्तभित्योः संयोगस्य अभावः अधिकरणे भित्तौ भित्तौ
संयोगस्य अपि मानत्वम् आगतम्
अधिकरणे अत्र भित्तिः अस्ति भित्तौ एकत्र अस्ति अन्यत्र एतत् न वर्तते अतः एव विद्यमानत्वम् एकत्र अस्ति अन्यत्र नास्ति अतः तादृशः
स्वभावस्य अधिकरणे नाम संयोग
हस्तभित्योः संयोगस्य अभावस्य
अधिकरणे
अधिकरणे भित्तौ
स्वस्य नाम संयोगस्य अपि
संयोगस्य विद्यमानत्वं वर्तते इति
विद्यमानं वर्तते इति अतः तत्र
देव अव्याप्यवृत्तित्वम्
इति अस्ति संयोगस्य अव्याप्यवृत्तित्वम् आगतं समीचीनम् अतः एतावत् वयं पठितवन्तः अग्रिमे सप्ताहे तत्र अन्यत् उदाहरणं पठित्वा तदनन्तरं तत्र अवच्छेदकत्वम् इति तत्र उषा भगिन्या पठितम् आसीत् तत्र अग्रदेशं मूलदेशं तत्र अवच्छेदकम् अस्ति तत्र अधिकरणतयाः अवच्छेदकम् अस्ति इति अतः अवच्छेदकत्वम् अवच्छेदकम् इत्युक्ते किम् इति तत्र अग्रिमे वर्गे तस्यापि चर्चा भवति अतः तत्र व्याप्य व्यापकः अपि अवच्छेदकः अवच्छेद्य तत्र प्रसिद्धसम्बन्धः तयोः तत्र बहुवारं प्रयोगः भवति न्यायशास्त्रे अस्तु बहु समीचीनमस्ति तत्र करपत्रस्य
विद्याधरी पुस्तकं प्राचीनानां मतम् अनुसरति वा अथवा नव्यमतानां मतम् अनुसरति
समीचीनप्रश्नः भगिनि तत्र नव्य
मतानुसारं
नैयायिकानां मतमेव अनुसरति भगिनि स्मः किन्तु तत्र परिचयपुस्तकम् इति कृत्वा तत्र प्राचीनानां मतं किमस्ति तत्र वैशेषिकानां मतं किमस्ति नैयायिकानां मतं किमस्ति इति किञ्चित् विवरणं दत्तमस्ति किन्तु तत्र यत् इदानीं तत्र नैयायिकाः सन्ति ते सर्वे तत्र नव्यनैयायिकाः एव तत्र प्राचीननैयायिकानां तत्र पुस्तकानि सन्ति, किन्तु यः इदानीं नैयायिकाः इति यदि कोऽपि अस्ति चेत् सः सा नव्यनैयायिका एव भवेत्.
एका शङ्का अस्ति महोदय, यदि अव्याप्यवृत्तित्वं स्वीकुर्मः चेत् नाम तत् स्वीकुर्मः चेत् एव अवच्छेदकस्य आवश्यकता अस्ति, चित्ररूपं स्वीकुर्मः चेत् अवच्छेदकस्य आवश्यकता एव नास्ति.
नास्ति, सत्यं भगिनि, सत्यं सत्यं, हा सत्यं, हा यतोहि पूर्णतया अस्ति इति कृत्वा तत्र देशस्य कुत्र अस्ति इति तस् किमपि कापि वार्ता नास्ति. सत्यं भगिनि, हा अतः तत्र भेदं भेदः कः इति वक्तुं नव्यनायकानां मतस्य वर्णनं कर्तुम् अवच्छेदकधर्मस्य विश्लेषणम् आवश्यकम्. अतः एव तत्र अवच्छेदकं किम् अस्ति इति अत्र स्पष्टतया दत्तमस्ति. अस्तु, समीचीनप्रश्नं भगिनि, धन्यवादः. अस्तु तर्हि समीचीनमस्ति, बहु किमपि अतीत, धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः, धन्यवादः.
धन्यवादः.